इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः कृष्णप्रसादोपाध्यायः। प्रधानमन्त्री नरेन्द्रमोदी अद्य स्वसंसदीयक्षेत्रं वाराणसीनगरं गत्वा प्रायः द्वाविंशतिशतकोटिरूप्यकाणां विकासपरियोजनानां शिलान्यासम् उद्घाटनञ्च करिष्यति। अवसरेऽस्मिन् सः एकां जनसभामपि सम्बोधयिष्यति। कृषकाणां कल्याणार्थम् ऐतिहासिकं पदक्षेपं स्वीकृत्य प्रधानमन्त्री वाराणसीतः पीएम किसान इत्यस्य विंशतितमं पुटकमपि विमोचयिष्यति, येन माध्यमेन सार्धद्विसहस्रकोटिरूप्यकाणि प्रायः सम्पूर्णदेशस्य पादोनदशकोटिकृषकाणां कोशेषु प्रत्यक्षरूपेण प्रेषयिष्यन्ते। प्रधानमन्त्री वाराणसी भदोही मार्गस्य चितौनी शूलटंकेश्वर मार्गविस्तारस्य च उद्घाटनमपि करिष्यति। प्रधानमन्त्री मोदी जलजीवन मिशन इत्यस्यान्तर्गतं सप्तचत्वारिंशत् ग्रामीण पेय जल योजनानां उद्घाटनमपि करिष्यति। विदेशमन्त्रालयः अवदत् यत् भारतस्य रक्षा आवश्यकतानां स्रोतस्य निर्धारणं केवलं देशस्य राष्ट्रिय सुरक्षायाः अनिवार्यताभिः सामरिकमूल्याङ्कनेन च भवति। मन्त्रालयस्य प्रवक्ता रणधीर जयसवालः नवदेहलीनगरे रक्षाक्रयणविषये एकस्य प्रश्नस्य प्रत्युत्तरे प्रसारमाध्यमान् सम्बोधयन् एतत् अवदत्। ऊर्जास्रोतस्य विषये प्रवक्ता दृढतया अवोचत् यत् भारतदेशः विपण्यां ये प्रस्तावाः सन्ति वैश्विकपरिस्थित्यानुसारं तदनुकूलञ्च व्यवहारं विधास्यतीति।
On our energy sourcing requirements, you are aware of our broad approach that we look at what is there available in the market, what is there on offer, and also what is the prevailing global situation or circumstances.
Bharat-Russia sambandh vishaye prashnasya pratyuttare pravakta avadat yad vibhidh deshaih sah dvipakshika sambandhaah swasyaah yogyatayaah aadhareno sthitaah santi te cha tritiya deshasya chakshusha na drashtavyaah iti। श्री जयसवालः अवधानं दत्तवान् यत् भारत अमेरिका देशयोः समग्र वैश्विक सामरिक सहभागित्वमस्ति, यस्य आधारः सहभागिहितं लोकतान्त्रिक मूल्यानि दृढ प्रतिजन सम्बन्धश्चास्तीति। ऑपरेशन सिन्दूर इत्यस्य समये भारत पाकिस्तानयोः मध्ये प्रत्यक्षतया सैन्यक्रियाक्रमणं निवारयितुं चर्चा अभवदिति सर्वकारः दृढीकृतवान्। लोकसभायां लिखिते प्रत्युत्तरे विदेश राज्यमन्त्री कीर्तिवर्धन सिंहः अवदत् यत् भारत पाकिस्तान देशयोः सशस्त्र सेनायाः मध्ये विद्यमान सम्प्रेषणाधारेण चर्चा अभवदिति। युद्धविरामस्य याचना पाकिस्तान पक्षेण आरब्धा इति सः स्पष्टं कृतवान्। तृतीयपक्षस्य मध्यस्थतायाः विषये मन्त्री अवदत् यत् भारतम् अमेरिकादेशस्य राष्ट्रपतिना सह सर्वाणि राष्ट्राणि अपि स्पष्टम् अकरोत् यत् पाकिस्तानेन सह कस्यापि विवादस्य विषये द्विपाक्षिकरूपेण एव चर्चा भविष्यतीति। डब्लिन् नगरस्य भारतीयदूतावासः आयर्लैण्डदेशस्य सर्वानपि भारतीयनागरिकान् स्वकीयसुरक्षायै युक्तियुक्तानि सावधानानि स्वीकर्तुं विशेषतः विषमसमये निर्जनक्षेत्राणि परिहर्तुञ्च उपादिशत्। ह्यः प्रस्तुते परामर्शपत्रे दूतावासः अवदत् यत् सद्यः एव आयर्लैण्डदेशे भारतीयनागरिकान् विरुध्य शारीरिक आक्रमणानां प्रकरणानि वर्धितानि सन्तीति। दूतावासः अस्मिन् विषये आयर्लैण्डदेशस्य सम्बद्धैः अधिकारिभिः सह सम्पर्कं कुर्वन् अस्ति। विदेशराज्यमन्त्री कीर्तिवर्धनसिंहः अवदत् यत् हिन्दमहासागरक्षेत्रस्य देशैः सह भारतस्य राजनैतिकसम्बन्धाः दृढाः सन्ति, व्यापारनिवेशसम्बन्धाः च वर्धिताः सन्तीति। महाराष्ट्रसर्वकारेण गोकुलाष्टमीत्यवसरे आगामिनि दहीहाण्डि उत्सवे भागं ग्रहीतृभ्यः सार्धैकलक्षगोविन्दानाम् आश्वस्तिरक्षणस्य घोषणा कृतास्ति। तेषां सुरक्षायै ओरियण्टल् इन्शुरेन्स् कम्पनी इति माध्यमेन आश्वस्तिः प्रदीयते। अन्ते क्रीडावार्तायाम्, अद्य लंडन नगरस्य द ओवल इत्यत्र एंडरसन तेंडुलकर ट्रॉफी क्रीडायाः पंचम अंतिमंच क्रिकेट निकष क्रीडायाः तृतीय दिने आतिथेय इंग्लैंड देशं विरुध्य भारतं स्वस्य द्वितीय पारी पुनः आरभत। क्रीडाया आरंभः भारतीय समयानुगुणं सायं 3:30 वादने भविष्यति। इति वार्ताः।